हल् सन्धिः इत्यस्य विषये पाठः प्रवर्तमानः अस्ति अस्माकं वर्गे. गतवर्गे अस्माभिः श्चुत्वसन्धेः परिचयः प्राप्तः. श्चुत्वसन्धिः इति तदर्थम् उच्यते यतोहि फलरूपेण सन्धिकार्यानन्तरं शकारः वा अथवा चवर्गीयवर्णः आदेशरूपेण आगच्छति सकारस्य अथवा तवर्गीयवर्णस्य स्थाने इति श्चुत्वसन्धिः इति अस्ति. तत्र सूत्रमासीत् स्तोःश्चुनाश्चुः इति. सूत्रमपि तदेव वदति सकारतवर्गस्य च स्थाने शकारचवर्गस्य च आदेशः. कदा इत्युक्ते श्चुना, श्चुना इत्युक्ते शकारचवर्गीयैः सह यदा सम्पर्कः भवति सकारतवर्गीयाणां तदा भवति इत्युक्त्वा इति कृत्वा स्तोःश्चुनाश्चुः इति श्चुत्वसन्धिविधायकसूत्रम्. अपि च एकं श्चुत्वसन्धिनिषेधकं श्चुत्वनिषेधकं सूत्रमपि अस्माभिः परिशीलितमासीत् शात् इति सूत्रम्. शकारात् परस्य सवर्गस्य च्युत्वं न स्यात् इति सूत्रं वदति. इति सर्वं वयं दृष्टवन्तः. अद्य श्चुत्वसन्धिः इति विषयः भवति. केन आगतं नूतनतया? नमस्कारः. अस्तु, बालसुब्रह्मण्यमहोदय, तर्हि 30 पुटे श्चुत्वसन्धिः इति यः भागः अस्ति तत्र पठति वा?
श्चुत्वसन्धि उदाहरणानि पठामि वा?
दोषः श्चुत्व, हा श्चुत्वसन्धि, समीचीनमेव. अस्तु, पठतु महोदय अग्रे.
एतानि उदाहरणानि परिशीलयत. बृहत् योगटीका, बृहयोगत योगट ईका, बृहयोगट योगट ईका, बृहट्टीका. सो तकारस्य स्थाने तकारः आयाति, तस्मात् बृहट्टीका इति अन्तिमरूपम्.
दन्त्यतकारस्य स्थाने मूर्धन्य टकारादेशः अभवत्.
तदनन्तरं तद् योग डमरुः, त योग द योग ड योग अमरुः, त योग इड् योग ड योग अमरुः. सो अत्र धकार दन्त्यधकारस्थाने ढकारः ढकार ढकारः,
हा समीचीनं,
ढकारः कथं ढकारस्थाने ढकारः
इति अस्ति. त त द इति तृतीयवर्णः दन्त्यधकारः, ट ट ड इति तृतीयवर्णः मूर्धन्यडकारः,
मूर्धन्यडकारः
आदेशः आदेशरूपेण आगच्छति.
सत्यं, सन्ति तड्ढमरुः इति. तदनन्तरम् आकृष् योगतः, आकृयोगशकारः योगतकारः योग अकार अह्. सो आकृयोगशकारः योगठकारः योगः आकृष्टः. अत्रापि दन्त्यठकारस्थाने मूर्धन्यठकारः भवति, शकार मूर्धन्यशकारः समीपम् अस्ति इति कारणात्. किल महोदय?
आम् आम् आम्. शकारेण मूर्धन्यशकारेण सह सम्पर्कः अस्ति दन्त्यठकारस्य इति कृत्वा तकारस्य स्थाने टकारः. अग्रे
अनन्तरम् इष् योगतः, इ योगश योगत योगाः, इ योगश योग ठकारः ट योग अः इष्टः अत्रापि दन्त्यतकारस्थाने मूर्धन्य ढकारः आयाति सम्पर्क समीपे षकार मूर्धन्य षकारः अस्ति इति कारणात् अन्तिमरूपम् इष्टः विस् योगस्थितं वियोगस योगस्थितं वि योग ष योगस्थितम् वि योग ष योग इच्छ योग इथम् सो वि योग ष योग ठ योग इथम् विष्टितम् अत्र थकारस्थाने दन्त्यथकारस्थाने मूर्धन्य ठकारः द्वितीयसदस्यवर्णः स्थान्यन्तरतमः सूत्रेण थकारस्थाने ठकारः आयाति तस्मात् विष्ठितम् इति अन्तिमरूपम् आयाति.
हा समीचीनं. पञ्चमे उदाहरणे किञ्चित् इतोपि समीचीनतया द्रष्टव्यम् आसीत् इत्युक्ते तैः दर्शितव्यम् आसीत् वि योगः स्थितम् इति अस्ति वस्तुस्थितिः. वियोगः स्थितम् इति अस्ति. एका टिप्पणी अस्ति खलु अधोभागे एकम् इति सङ्ख्यां दत्वा. तत्तु एकं दीर्घसूत्रम् अस्ति, तर्हि चिन्ता मास्तु, पठनस्य नास्ति कापि आवश्यकता. परन्तु एवमेव वदामि यत् केचन उपसर्गाः सन्ति, इकारान्ताः उकारान्ताः, तेषां परतः केचन धातवः आगच्छन्ति चेत् तर्हि धातोः सकारस्य षकारः भवति इति स्थितिः. अस्तु, वियोगः स्थितम् इति यदा भवति तदा वि उपसर्गस्य अनन्तरं कः वर्णः अस्ति महोदय?
सकारः.
हा, प्रथमतया सकारस्य षकारत्वेन, तदनन्तरं
तृतीयसदस्य ताल दन्त्य तितम्.
हा, एकवारं यदि सकारस्य षकारत्वेन परिवर्तनं भवति वियोगः स्थितम् इत्यत्र, स्थितम् इत्यस्य आदिमसकारस्य षकारत्वेन परिवर्तनं यदा एकवारं भवति तदा तस्मिन्नेव पदे दन्त्यथकारः अस्ति खलु. हा, तर्हि तस्य दन्त्यथकारस्य सम्पर्कः केन सह जातः?
मूर्धन्यषकारः.
हा, मूर्धन्यषकारेण सह जातः. तर्हि
स्वविश तदनन्तरं दन्त्यथकारस्थाने मूर्धन्यठकारः सम्पर्कम्.
हा, इति श्रुत्वसन्धिः तत्र भवति इति वार्ता. अस्तु, अग्रे एका पङ्क्ति अस्ति खलु, तत् पठतु कृपया.
षकार तवर्गाभ्यां योगे सकारस्य षकारः तवर्गेण योगे तवर्गस्य तवर्ग आदेशो भवति.
इति स्पष्टं स्यात्. षकारटवर्गाभ्यां योगे सकारषकारः, सकारस्य षकारः इति वयं दृष्टवन्तः खलु. उपरितने तस्य उदाहरणं कुत्र अस्ति? सकारस्य षकारस्य उदाहरणं नास्ति, किन्तु अग्रे पश्येम. किन्तु तवर्गस्य तवर्गादेशः इति वयं सर्वत्र दृष्टवन्तः उदाहरणेषु. अस्तु, इदानीं एतादृशी स्थितिः योगे इत्यादृशी स्थितिः श्रुत्वसन्धौ अपि दृष्टम्. अधुना श्रुत्वसन्धौ अपि पश्यामः. योगे इत्यस्य अर्थः कः इति इतोपि एकवारं स्मारयति वा? तत्र पूर्वतने पुटे टिप्पणी अस्ति एका, पठति वा?
सम्बन्धं सामीप्यं पूर्व योग इति योगे अतः सकारवर्गया योगे सकारस्य सकारः योग इति विस्तरणं कुत्र अस्ति?
त्रिंशत्तमे पुटे एका टिप्पणी अस्ति, किन्तु भवान् उक्तवान् एव योगः
योगः सम्बन्धः, अतः सकार तवर्गाभ्यां परौ एव सकार चवर्गौ भवेताम् इति न नियमः, तस्मात् ताभ्यां तयोः परयोः इति न अर्थः, किन्तु सम्बन्धमात्रम् सम्बन्धश्च पूर्वस्य परेण इव परस्य पूर्वेण अपि भवितुम् अर्हति.
योगः इत्युक्ते सम्बन्धः, यत्र योगः सम्बन्धः इति यदा यदा वदामः तर्हि तत्र क्रमस्य प्राधान्यं नास्ति. अस्तु, सकार तवर्गाभ्यां परतः अष्टुत्वसन्धौ शकारः अथवा चवर्गीयवर्णाः भवितुम् अर्हति, नो चेत् पूर्वमपि भवितुम् अर्हन्ति. एवमेव ष्टुत्वसन्धौ अपि योगः इत्यस्य एव प्राधान्यम् अस्ति. इत्युक्ते सवर्ग सकारसवर्गाभ्यां पूर्वं वा परं शकारतवर्गाणां वर्णः भवतु इति, तादृशी स्थितिः. अस्तु, इदानीं सूत्रदृष्ट्या पश्यामः ष्टुत्वसन्धि कथं भवति इति. राजेन्द्र महोदय, तत्र ष्टुत्वसन्धि इति सूत्रं प्रथमसूत्रं पठति वा?
आम् आं भगिनि, पठामि. ष्टुत्वसन्धिः ष्णा षटुः ष्टुः दन्त्यसकारस्य तवर्गीवर्णस्य च स्थाने मूर्धन्य षकार आदेशः टवर्गीवर्ण आदेश्च भवतः मूर्धन्यषकारः टवर्गीवर्णयोः योजनेन यथासङ्ख्यम् अनुदेशः समानम् इति परिभाषा सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः सम्बध्यते. षचतुश्च षटुः तेन षटुना समाहारद्वन्द्वः षचतुश्च षटुः समाहारद्वन्द्वः षटुना तृतीयान्तं षटुः प्रथमान्तं द्विपदं सूतं स्तोः षटुना षचुः इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः तयोर्वार्वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्तोः शृणा ष्टुः संहितायाम्. सूत्रं किं वदति, यथा दन्त्यसकारः तवर्गे वर्णस्य कोऽपि वर्णः आगच्छति तस्य स्थाने मूर्धन्य षकारः टवर्गे वर्णः आदेशः भवति. अत्र तत् स्तोः कस्य स्थाने स्तोः सकारः दन्तिसकारः अथवा तवर्गे वर्णः भवन्ति चेत् तेषां स्थाने तस्य स्थाने मूर्धनिषकारः टवर्गे वर्णानाम् आदेशः भवति तथा
हा समीचीनम्. अत्र मूर्धन्यषकारः अथवा टवर्गीयः पूर्वम् आगच्छति वा अथवा परं?
तत् भगिनी शृणा तृतीयान्तम् अस्ति, प्रथमं चिन्तयामि पूर्वं परं कार्यं समानं भवति.
पूर्वं वा परं वा इत्यस्य प्राधान्यं नास्ति, सम्पर्कः. तृतीया विभक्त्या संयोजनम् इति निर्दिष्टमस्ति, ष्टुना इति तृतीयविभक्त्यां विभक्त्याम् अस्ति इति कृत्वा. अस्तु महोदय, अग्रे यथासङ्ख्यम् अनुदेशः समानः समानम् इति किञ्चित् विवृणोतु.
यथासङ्ख्यम् अनुदेशः समानं यथा यस्य स्थाने आदेशः भवति अन्यत् वर्णः आगच्छति यत् तस्य स्थानं सङ्ख्या अपि तु स्थानं समानः भवतु. यथा तकारः तकारस्थाने आगच्छति टकारः आगच्छति ठकारस्य स्थाने ठकारः आगच्छति, तथैव कृत्वा समान आदेशः भवति.
एकनिमिष तत्र यथासङ्ख्यम् अनुदेशः समानं. यथासङ्ख्यम् इत्युक्ते सङ्ख्याम् अनतिक्रम्य इत्युक्ते तत्र तत्र उद्देशिनः कियन्तः सन्ति?
उद्देशिनः अस्ति यत्किमपि यस्य किमपि स्थाने भवति.
तर्हि कति कति उद्देशिनः इत्युक्ते सकारः सवर्गीयस्य वर्णाः खलु, षट् इति सङ्ख्या अस्ति. तस्य स्थाने आदेशरूपेण यः वर्णः आगच्छति, ये वर्णाः आगच्छन्ति, तेषां सङ्ख्या का?
समानं भवतु.
समानमेव, षकारः अपि च
टवर्गीयवर्णाः.
हा, टवर्गीयवर्णाः. तर्हि अत्र सङ्ख्या समानमस्ति. इदं सूत्रं वदति, यथासङ्ख्यम् अनुदेशसमानं सूत्रं वदति, सङ्ख्याम् अनतिक्रम्य क्रमेण उद्देशिभिः अनुदेशिनः सम्बध्यन्ते. इत्युक्ते उद्देशिनां स्थाने अनुदेशिनः आदेशरूपेण आगच्छन्ति. अस्तु, समीचीनं. तर्हि यथासङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रमस्ति. यत्र
स्थानेन्तरतमः इति सूत्रम् अपि समानार्थं वा महोदय?
हा हा, इति मम अपि प्रश्नः आसीत् तत्र. स्थानेन्तरतमः अपि परिभाषासूत्रं. स्थानेन्तरतमः तत्र कार्यं करोति यत्र एतादृशसङ्ख्याकृतसम्बन्धः नास्ति. इत्युक्ते इको यणचि इति मम अवगमनमस्ति. पुनः महोदयः प्रष्टव्यः, यतोहि पश्यति चेत् स्वरसन्धिविषये स्थानेन्तरतमः यत्र कुत्रापि आगच्छति, इको यणचि इत्यत्र आगच्छति खलु. तत्र इक् वर्णे इक् सदस्याः तु इ उ ऋलृ, तत्र ह्रस्वः दीर्घः इति सर्वे स्वराः अन्तर्भूताः. आदेशरूपेण तु यण् वर्णाः इत्युक्ते यवरल, चत्वारः एव वर्णाः आदेशरूपेण. तत्र यथासङ्ख्यम् अनुदेशः समानं प्रायः कार्यं न कुर्यात्. तदर्थम् उच्चारणसाम्यं दृष्ट्वा स्थानेन्तरतमः इति सूत्रेण इकारस्य यकारः उच्चारणसाम्यमस्ति खलु तत्र. तदर्थं हा सः तत् सूत्रं तत्र कार्यं करोति, परिभाषासूत्रम्. अस्तु अस्तु, यत्किमपि भवतु स्थानेन्तरतमः.
भगिनि, अत्र विस्थितं तत्र उद्दिष्टिनः उद्देशिनः शकारः न
तकारः
स्थितं तकारः. हा अस्तु, तकारः उद्देशिनः.
अस्तु इति वार्ता. अस्तु तर्हि हा, इतोपि एकवारं राजेन्द्रमहोदय अनुवृत्तिसहितसूत्रं पठित्वा उदाहरणानि किञ्चित् परिशीलयतु.
स्तोः ष्टुना ष्टुः संहितायाम् अत्र उदाहरणरूपेण अत्र दत्तमस्ति, बालस् योग षष्ठः. अत्र पूर्वं दन्ति सकारः अस्ति, तदनन्तरं मूर्धन्य षकारः आगच्छति, तत् कारणतः दन्तिसकारस्य मूर्धन्य षकारः आदेशः आगच्छति, बालषष्ठः निष्पन्नं भवति. तथैव बृहत् योगटीका, पूर्वं तकारः दन्ति तकारः अस्ति, तदनन्तरं मूर्धन्य टकारः आगच्छति, तकारस्य स्थाने टकार आदेशः भवति, तत् बृहट् टीका निष्पन्नं भवति. आकृष् योगतः, अत्र षकारः मूर्धनि षकारः पूर्वम् अस्ति, तदनन्तरं तवर्गे तकारः आगच्छति, तत् कारणात् तत् दन्ति तकारस्य स्थाने मूर्धनि टकारः आदिष्टः भवति, तत् आकृष्टः निष्पन्नं भवति.
समीचीनमस्ति. अत्रैव दृष्टम् उदाहरणे बृहद्योगः टीका, तत्र तकारः पूर्वमस्ति, तदनन्तरं टकारः मूर्धन्यवर्णः खलु. आकृष्योगः तः इत्यत्र वैपरीत्यमस्ति. शकारः प्रथमं मूर्धन्यवर्णः, तदनन्तरं दन्त्यतकारः. तर्हि उभयत्र कार्यं करोति ष्टुनाष्टुः इति सूत्रम्. इति अस्ति ष्टुत्वसन्धिविधायकसूत्रम् इति. अत्र कोऽपि प्रश्नः वा कस्यचित् न स्यात् इति मन्ये. सुलभमेव, यथा ष्टुनाष्टुः आसीत् तद्वदेव. अस्तु, इतः अग्रे यथा वयं ष्टुत्वसन्धिप्रसङ्गे अपि दृष्टवन्तः कुत्र कुत्र निषेधः भवति ष्टुत्वसन्धेः. शात् इत्यस्मिन् आसीत् खलु, शकारोत्तरवर्ति तवर्गीयवर्णः अस्ति चेत् तस्य च्युत्वं न भवति इति शात् वदति. इत्युक्ते स्तोः ष्टुनाष्टुः इत्यस्य कार्यं निषेधयति. तद्वद् अत्रापि एकं सूत्रम् अस्ति. तर्हि पश्येम. लक्ष्मी भगिनी अग्रे अग्रिमसूत्रं पठति वा?
तोः तवर्गस्य ष्टुत्वं न स्यात् शकारे परे. ष्टुनाष्टुः इत्यस्य निषेधकसूत्रं तोः षष्ट्यन्तं षि सप्तम्यन्तं द्विपदमिदं सूत्रम्. ष्टुनाष्टुः इत्यस्मात् ष्टुः इत्यस्य अनुवृत्तिः, न पदान्तस्तोरणाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः, तयोयुवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं तोः षि नाष्टुः संहितायाम् इति अत्र अस्ति. तोः षि स्तुत्वसन्धेः निषेधिकसूत्रमस्ति. तवर्गस्य स्तुत्वं न भवति शकारे परे इति अत्र अस्ति. अत्र उदाहरणम् अपि दत्तमस्ति. अत्र भवान् षष्ठः इति वदामि वा? पुस्तके अपि
समानम् उदाहरणमेव अस्ति. अस्तु, भवान् षष्ठः इत्यत्र का स्थितिः इति वर्णयतु प्रथमतया.
भवान् शब्दे अन्तिमवर्णः नकारः. नकारः तवर्गीय व्यञ्जनं तथा न अन्तिमवर्णम् अनुनासिकवर्णः. अनन्तरं द्वितीयपदमस्ति षष्ठः. षष्ठः इति पदे प्रथमवर्णः षकारः. अत्र स्तुत्वसन्धेः निमित्तमस्ति, परन्तु स्तुत्वसन्धिः न भवति. अत्र तोषि इति सूत्रं कार्यं करोति. तदर्थं नकारस्य स्थाने मूर्धन्यणकारादेशः न भवति.
हा, बहु समीचीनमस्ति भगिनि. इति एव अस्ति तत्र. ष्टुनाष्टुः कार्यं कर्तुम् इच्छति अत्र. कार्यक्षेत्रम् अस्ति वा ष्टुनाष्टुः इत्यस्य? भवान् योगः षष्ठः
अस्ति, परन्तु अत्र तोषि कार्यं करोति, तदर्थं ष्टुत्वं न भवति.
तोषि कार्यं करोति इत्युक्ते तोषि इत्यस्य कार्यक्षेत्रं किम् अस्ति? प्रथमवाक्यं प्रथमवाक्यं पठतु सूत्रस्य.
तवर्गस्य स्तुत्वं न भवति षकारे परे. इत्युक्ते द्वितीयशब्दस्य प्रथमवर्णः षकारः इति. षकारः परे चेत् स्तुत्वं न भवति इति तोषि वदति.
समीचीनम्. इति एव अस्ति खलु अत्र परिस्थितिः. तवर्गीयवर्णः, तस्मात् परः अस्ति षकारः, षकारे परे. अस्तु, सूत्रे तोषि तोहोषि इत्यस्मिन् सूत्रे विभक्तिवर्णनं करोतु. कस्य का विभक्तिः?
तोः षष्ट्यन्तं, किमर्थं चेत् तुः प्रथमविभक्तिरूपं, तोः षष्टिविभक्तिरूपं, तुः इत्युक्ते तवर्गीय व्यञ्जनानि. अनन्तरं षि इत्युक्ते सप्तम्यन्तम्. अत्र षि इत्युक्ते सप्तम्यन्तम् इत्युक्ते प्रथमाविभक्तिरूपं षकारः षा इति वदामि. वदामः द्विपदमिदं सूत्रं केवलं द्वे पदे एव अत्र स्तः.
समीचीनम्. अस्तु, विभक्त्याः अर्थः कः? षष्ट्यन्तम् इत्युक्ते
स्थाने इत्युक्ते तवर्गीयव्यञ्जनानां स्थाने स्तुत्वं न भवति.
हा, स्तुत्वं स्यात् किन्तु स्तुत्वं न भवति. स्थानि इत्युक्ते षष्ट्यन्तपदेन स्थानि निर्दिष्टः अस्ति. स्थानि अस्ति तवर्गीयव्यञ्जनानि. तुः अस्तु. सप्तम्यन्तम् इत्युक्ते
पूर्वकार्यं.
समीचीनं. पूर्वकार्यं निमित्तसप्तमी अस्ति. शकारः निमित्तरूपेण अग्रे आगच्छति, पूर्वं कार्यं कारयति इति. अस्तु, समीचीनम्. इति तोषि इति श्रुत्वा निषेधकसूत्रमस्ति.
अनुवृत्ति लघुप्रश्नं. निषेधकसूत्रम् अपवादसूत्रम् एतयोः मध्ये भेदः कः?
वर्गे अपि काचित् चर्चा जाता. तत्र निषेधक अस्तु, अपवादसूत्रम् इति प्रायः अनया दृष्ट्या द्रष्टव्यं भवति यद् तत् सूत्रम् अत्र कार्यं न करोति चेत् अन्यत्र कुत्रापि लब्धावकाशः न भवति वा इति, खलु? इति जानीमः अपवादस्य विषये. निषेधकम् इति कस्यचित् कार्य कस्यचित् सूत्रस्य कार्यमस्ति. सूत्रं कार्यं कर्तुम् आगच्छति, किन्तु इदं सूत्रं निषेधयति इति. सुब्रह्मण्यमहोदय किं वदति?
मम अवगमनमपि तथा एव अस्ति भगिनि, परन्तु अस्मिन् उदाहरणे तोहोषि अपि अपवादसूत्रं भवितुम् अर्हति किल? किमर्थं चेत् अत्र एतत् सूत्रं न कार्यं करोति चेत् कुत्रचित् अपि तस्य कार्यं न भवति.
सत्यम् इति एकया दृष्ट्या अपवादः इति अपि वक्तुं शक्नुमः. परन्तु अस्माकं मूलवर्गे अपि तेषु दिनेषु एषा चर्चा जाता, कथञ्चित् निषेधकसूत्रम् इति अपवादसूत्रात् भिन्नम् इति निष्कर्षः सञ्जातः. आम्, सत्यम्. एकदृष्ट्या अपवादः अपि दृश्यते अत्र, खलु? अस्तु,
एकः प्रश्नः अस्ति. अत्र अनुवृत्तिसहितसूत्रे तोः षि न ष्टुः इति अस्ति किल? तत्र ष्टुः आदेशः नास्ति, केवलं टु एव आदेशः, टुः.
सत्यं, बहु समीचीनं विद्या भगिनी, इति मम मनसि अपि आसीत्. तत्र निरर्थकमस्ति षकारस्य आनयनं, खलु? यतोहि तकारस्य स्थाने निरर्थकमस्ति. तर्हि बहूनि कारणानि स्युः तदर्थम् इत्युक्ते अपरस्मात् सूत्रात् पदम् आनीयते, खलु? अपरस्मात् सूत्रात् किं पदम् आनीयते अत्र?
ष्टुः इति सूत्रे ष्टुः इति पदम् आगच्छति.
तस्य पदच्छेदः पदच्छेदम् अकृत्वा अनुवृत्तिः भवतु इति एकं कारणं स्यात् इति अस्ति. स्तोः श्चुनाश्चुः, पश्यतु अनुवृत्तिसहितसूत्रं किमस्ति तत्र.
स्तोः श्चुनाश्चुः, स्तोः श्चुनाश्चुः संहितायां.
हा, क्षम्यतां, शात् इत्यस्य. तदनन्तरं शात् इति
शात् तोः न संहितायां, तत्र आदेशः एव नास्ति.
हा, कस्य आदेशः नास्ति?
चुः.
चुः, परन्तु तस्य अनुवृत्तिः न प्रदर्शितम् अत्र. मया पृष्टमपि आसीत् वर्गे. तर्हि उत्तरम् इदमेव, यद् अपरस्मात् सूत्रात् आनीयते प्रथमतया एकं पदं, तस्य पदस्य एकः कश्चन भागः भवतु, अन्यः भागः न भवतु इति प्रायः तथा न स्यात् इति कृत्वा पूर्णतया आनीयते ष्टुः इति. नो चेत् तत्र यथा शात् इत्यस्मिन् तोः न संहितायाम् इति एव उक्तं. तर्हि किं न भवति तोः स्थाने इत्युक्ते चुः
चुः खलु
इति अवगन्तव्यं भवति.
अस्तु
अस्तु समीचीनं. तर्हि हा अग्रे इतोपि एकं निषेधकसूत्रम् अस्ति, अग्रे पश्यामः. सरला भगिनी पठति वा?
पदान्तात् पूर्णनाम पूर्णनाम पदान्तात् प्रवर्गात् श्रेष्ठिः न स्यात् नाम नकारवर्जकीयवर्जयित्वा नष्टिः उपसंनिषेधकसूत्रं न अव्ययपदं पदान्तात् पञ्चम्यन्तं तोः पञ्चम्यन्तम् अनां लुप्तशठिकं पदम् अनेकपदं सूत्रं तोष्णस्तु उपस्मस्तोः उपसनिवृत्ति नष्टिः उपस्मस्तुः उपसनिवृत्ति तयोर्वारचिसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं पदान्तात् स्तोः स्तोः स्तुः न अनां संहितायाम्
सरला भगिनी, सरला भगिनी, मध्ये मध्ये ध्वनिः त्रुटितः अस्ति, वदतु. हा हा हा, इदानीं श्रूयते, तथा वदतु. यत्किमपि कृतवती भवती, श्रूयते. भगिनी न श्रूयते भगिनी.
पदान्ते यदि टवर्ग अस्ति तस्य परः स्तोष्टुः न स्यात्. सः यदि वयं दृष्टवन्तः स्तोष्णाष्टुः तत्र सवातवर्गस्य ष्टुवं भवति, अत्र ष्टुवं न भवति यदि चकार आदौ अस्ति. अत्र उदाहरणमस्ति षट्.
एकनिमिष. न पदान्तात् टोराणां सूत्रस्य प्रथमवाक्यं पठतु.
पदान्तात् वर्गास्तोष्टुनः न स्यात्.
अग्रे नामः
नामः नकारं वर्जितः
वर्जयित्वा
वर्जयित्वा यदि नकारस्य नकार अस्ति तत् सदस्य वर्जयित्वा सर्वे अन्यसदस्य स्टुः न भवति, स्टुवं सन्धि न भवति.
अत्र किञ्चित् वक्तव्यमस्ति. पदान्तात् टवर्गात् इति अवगच्छति वा?
आम्, पदान्त यदि टवर्ग तस्य पूर्वम् अस्ति, पदान्ते अस्ति.
हा, पदान्तात् टवर्गात् उपरितन उदाहरणेषु यद् प्रायः राजेन्द्रमहोदय पठितवान्, हा, तत्रापि न प्रदर्शितमस्ति प्रायः. टवर्गः, हा, यत्किमपि भवतु, टवर्गः पदस्य अन्ते अस्ति चेत्, टवर्गीयव्यञ्जनं टवर्ग पदस्य अन्ते अस्ति चेत्, अपि च तस्मात् परः कः वर्णः?
तस्मात् परः टवर्गीय, भगिनी पुनः वदतु.
पदान्ते टवर्ग टवर्गीयव्यञ्जनं पदान्तात् टवर्गात्
यदि सकारवातवर्ग अस्ति
तादृश्यां स्थित्यां किं न भवति?
सकारस्य शकार न भवति वा टवर्गस्य टवर्ग आगच्छति?
न भवति. स्तुत्वसन्धि निषेधकसूत्रं पुनः यथा तोषि आसीत् तद्वत् अस्तु. अत्र तु तोषि इत्यत्र शकारः अनन्तरम् आसीत्, अष्टमीविभक्त्याः तादृशार्थः, परन्तु पञ्चमीविभक्ति पदान्तात् टवर्गात्
तस्य परे कार्यं तस्य परे भवति. अत्र निषेधककार्यं पदान्तात् परे अस्ति, षट् अस्ति प्रथमं, तस्य परे निषेधक निषेधं भवति. सन्तस् तस्य सकारस्य सकार मूर्धन्यशकार न आगच्छति.
अस्तु अस्तु, इतोपि न समाप्तं. पदान्तात् टवर्गात् स्तोः ष्टुना ष्टुः न स्यात् तावत्पर्यन्तम् अवगतं खलु?
आम्.
हा, परन्तु ततः अग्रे किम् अस्ति सूत्रस्य व्याख्या?
नामः नकारं वर्जयित्वा यदि नकार अस्ति यथा नाम तत्र शुत्वं भवति
नामः इति तस्य विभक्ति का
नामः नकारं नाम तस्य विभक्ति अस्ति प्रथमा षष्टिविभक्ति
नामिति एकः प्रत्ययः अस्ति तस्य षष्टिविभक्ति अस्ति नामः नामः नकारं वर्जयित्वा इति उक्तं नकारः कीदृशवर्णः कस्मिन् वर्गे आगच्छति
तवर्गीय दन्तवर्गीय वर्गे आगच्छति
दन्त्यवर्गे एव आगच्छति खलु तर्हि पदान्तात् टवर्गात् ष्टुः न स्यात् स्तोः इति उक्तं परन्तु नकारः अपि तवर्गे अस्ति दन्त्यवर्गे अस्ति तर्हि अत्र सूत्रे उक्तं तद् वर्जयित्वा नामः एव नकारं वर्जयित्वा अपरेषां नकाराणां भवति एव निषेधककार्यं भवति ष्टुत्वं निषिद्धं परन्तु नामः नकारं वर्जयित्वा पदान्तात् टवर्गात् स्तोः ष्टुः न भवेत्
न भवति
इति सूत्रं वदति अस्तु तर्हि सूत्रे किं विभक्त्यर्थं किञ्चित् परिशीलयतु अग्रे
भगिनि अत्र भवान् नकारः अस्ति तत्तु तोषी कार्यं करोति
सत्यम्
अत्र नामः नकारः वर्जयित्वा वदति न
भगिनि अग्रे पश्यामः नामः नकारं वर्जयित्वा इति अग्रे उदाहरणे पश्यामः
अस्तु
भगिनि अग्रे
अस्तु न अव्ययपदमस्ति पदान्तात् पञ्चम्यान्तं पदान्तात् यथा वयम् उक्तवन्तः टोः पञ्चम्यान्तं टुः इति प्रथम टवर्गीय अस्ति तस्य पञ्चम्या अन्तम् एकवचनं टोः भवति अन्नाम लुप्तषष्ठिकं पदं भगिनी इदम् अहं न
इत्युक्ते इत्युक्ते सूत्रे तादृश अर्थः अस्ति नामः इति षष्टिविभक्ति नामः नकारं वर्जयित्वा इति अस्ति
अस्तु लुप्तषष्ठिकपद अनेकपदं सूत्रम् इति
अस्ति
अनिवृत्तिसहितसूत्रमस्ति पदान्तात् तो स्तु ष्णा अनां सहितायां पदान्तात् पञ्चम्यान्तं टोः तस्य अन्ते पदान्तस्य अन्ते यदि टः वर्गस्य सदस्य अस्ति तस्य परे पञ्चम्यान्तं टोः पुनः स्तोः यदि सकार वा तकारवर्गस्य षष्टिविभक्ति तस्य वर्ण आगच्छति ष्टुः नः नाम संहितायां ष्टुः तस्य आदेशः न भवति न केवलं नाम नकार नाम
नामः नकारं
वर्जयित्वा
वर्जयित्वा इत्यस्य अर्थः अनाम् इत्यस्मिन् अन्तर्भूतः अस्ति अनाम् इत्युक्ते नकारः यः कोऽपि भवतु तस्य एतादृशनिषेधककार्यं भवति एव केवलम् अनाम् इत्युक्ते नामः नकारे तत्र ष्टुत्वं
भवति
अस्तु अग्रिम उदाहरणं परिशीलयतु
षट्सन्तः अत्र टकारपदान्ते अन्ते अस्ति तस्य अनन्तरं सन्त सकार तस्य परे आगच्छति अत्र पदान्ततोरणाम् इति सूत्रेण सकारस्य मूर्धन्यषकारः न भवति द्वितीय उदाहरणं षट् तरुणा अत्र अपि टकार पदान्त्यस्य अन्ते अस्ति टोः इति पञ्चम्यन्तं तस्य अनन्तरं तरुणा तस्य परे अस्ति तस्य सन्धिः न भवति, तथैव सति षट् षट्
सन्धिः न भवति
भवति.
अस्तु, समीचीनमस्ति. उभयत्र तथा अस्ति खलु. पदस्य अन्ते कः वर्णः अस्ति?
पदस्य अन्ते सकारवातवर्गस्य वर्णाः सन्ति.
न भगिनी, समीचीनतया पश्यतु, पदस्य अन्ते किम् अस्ति अत्र?
पदस्य अन्ते टकारः, टवर्ग, प्रथमपदस्य अन्ते टवर्ग अस्ति. तस्य संहितायां सकार प्रथमे उदाहरणे सकार अस्ति, द्वितीय उदाहरणे तकार तरुण अस्ति. तस्य षुत्वं सन्धिः न भवति.
षुत्वसन्धिः न भवति. अस्तु, समीचीनम्. इति न पदान्तात् तोरणम् इत्यस्य कार्यस्य प्रथमभागः अत्र परिशीलितः. अस्तु, प्रथमभागमस्ति पदान्तात् टवर्गात् स्तोः ष्टुः न स्यात्. तद् अत्र तत्सर्वम् अत्र परिशीलितम्. हा, अधुना द्वितीयभागः. अस्तु, पुष्पा भगिनी करोतु, तस्य प्रश्नः आसीत् खलु. हा, समीचीनमासीत्, सरला भगिनी. अग्रे पुष्पा
भगिनी.
परन्तु षण् योगः नाम षण्णां वदति, तत्तु षण् योगः नवतिः षण्णवतिः.
अस्तु भगिनि, तत्यजतु. इदानीं षण् योगः नाम इत्यत्र कीदृशी परिस्थितिः अस्ति?
नकारः अस्ति, तत्तु पञ्चम व्यञ्जनः टवर्गीय पञ्चम व्यञ्जनः अस्ति. नकारः अस्ति तत्र, नाम प्रथम पद स्वरः नकारः नाम अस्ति.
अत्र वार्ता का? सरला भगिनी यत् पठितवती सूत्रे, पदान्तात् टवर्गात्.
तत्तु नकारः अस्ति.
नकारः, अस्तु, समीचीनं. तदनन्तरं किम् अस्ति?
नकारः.
तर्हि तस्यापि निषेधः स्यात् खलु, ष्टुत्वस्य निषेधः स्यात्?
अस्तु अस्तु भगिनि,
निषेधः
स्यात्,
परन्तु न भवति. किमर्थम्
अत्र
नामः नकारं वर्जयित्वा इति सूत्रस्य द्वितीयभागः अस्ति खलु?
नामः नकारः वर्जयित्वा अत्र अत्र षट् हन्तः न करोति, षण्णां करोति.
अस्तु, भवत्या यद् परिशीलितमस्ति षण्योगः नाम, तत्तु सूत्रस्य द्वितीयभागं सूचयति. अत्र सूत्रस्य द्वितीयभागे नामः नकारं वर्जयित्वा इत्युक्ते नाम इति प्रत्ययस्य नकारः आगच्छति चेत् पदान्तात् टवर्गात् तदा ष्टुत्वं भवति एव. स्तोः क्षम्यतां, ष्टुनाष्टुः कार्यं करोति, न पदान्तात् टोरणम् इत्यस्य कार्यं न भवति इति.
अस्ति, तत्तु षण् नकारः पञ्चमवर्णः पञ्चमव्यञ्जनः अस्ति, तत्तु षट् नाम तत्र न करोति. षट् योगः नाम, षट् योगः नाम.
हा, वस्तुतः षट् योगः नाम इति अस्ति खलु. षट् योगः नाम इति आगच्छति, किन्तु षट् योगः नाम इत्यस्यां स्थित्यां पदान्तात् टवर्गात् टवर्गः इति एव स्थितिः. तर्हि न पदान्तात् टोरणां कार्यं न करोति, नकारस्य नकारत्वेन परिशीलनं भवति एव. न इति आगच्छति षट् योगः णाम् इति, तदा अनुनासिकसन्धिः भूत्वा षण्णाम् इति भवति. किञ्चित् परिष्कारः आवश्यकः अत्र.
नकारः आयाति तकारस्थाने. तत्तु सूत्रं
भगिनि एकनिमिषः दन्त्यनकारस्य स्थाने नकारः आगच्छति दन्त्यनकारस्य स्थाने नकारः मूर्धन्यनकारः आगच्छति यद्यपि षट् इति पदान्ते टकारः अस्ति तथापि न पदान्ततोरणां न कार्यं करोति यतोहि सूत्रे एव उक्तं नामः नकारं वर्जयित्वा तादृशी स्थितिः अत्र अवगतम्
हा तत्तु षण् कथम् आयाति
एकनिमिष भगिनि इति एव उक्तवती तत्र परिष्कारः अपेक्षितः षट् योगः नाम् इति प्रथमतया भवति महोदयः सूचनीयः वदामः अनन्तरं षट् योगः नाम् इति अस्ति तत्र षट् योगः नाम् इत्यस्यां स्थित्यां न पदान्तात् तोरणां कार्यं न करोति श्रुत्वं भवति एव यतोहि सूत्रे उक्तं नकारं वर्जयित्वा नामः नकारं तर्हि षट् योगः नाम् षट् योगः नाम् इति भवति नकारस्य नकारः तदनन्तरं यरोनुनासिके अनुनासिको वा इति
तत्तु सूत्रं परमस्ति सम्यक् ऐ मीन् डिफ्रेण्ट्
अस्ति अस्ति हा अस्ति अग्रे आगत्य पुनः षण्णाम् इति भवति
अस्तु अस्तु
अग्रे पठतु
हा षण् योगः नवतिः षण्णवतिः षण् योगः नगर्यः षण् षण्णगर्यः अस्ति अनेन वार्तिकेन नवतिः नगर्यः इति नवतिः नगर्यः इति द्वौ श्वब्दौ अपि अन्तर्भूतापवादौ अनाम्नवति नगरी नामिति अनाम्नवति नगरीणाम् इति वाच्यं तत्तु एक सूत्रमस्ति न
तत्तु वार्तिकम् अस्ति यतोहि न पदान्तात्तोरणाम् इत्यस्मिन् सूत्रे नामः नकारं वर्जयित्वा अन्यत्र सर्वत्र श्रुत्वस्य निषेधः भवतु इति अस्ति खलु परन्तु या वार्तिका भवत्या पठिता अत्र वार्तिकमस्ति खलु यद्वार्तिकं भवत्या पठितं तत्र तेन वार्तिकेन यथा नामः नकारस्य श्रुत्वम् अभवत् तद्वत् नवतिः अपि च नगरी इत्यस्यापि श्रुत्वं भवति यद्यपि नवती नगर्यः नाम् इत्यस्य नकारः पदान्तात् अवर्गात् परे सन्ति तथापि एतेषां सर्वेषां श्रुत्वं भवति इति अपि च भवत्या यत् सूचितं तत् समीचीनमेव अत्र परिष्कारः आवश्यकः षट् योगः नाम् इति भवति तदनन्तरं षट् योगः नाम् इति भवति तदनन्तरं षण्णाम् इति
तत्तु डैरेक्ट् षण्णां षण्णां नास्ति नास्ति
तत्
कन्वर्जन् अस्ति विधान
सत्यं सञ्जीव् महोदय प्रथमतया इति चिन्तयामि अस्तु
अत्र पुस्तके दत्तमस्ति अत्र अनुनासिकसन्धिवशात् तकारस्य णकारः भवति इति षट् षण् भवति परन्तु मूलपदं तु षष् अस्ति खलु
मूलपदं षष् अस्ति तत्रापि प्रक्रिया भूत्वा षट् इति भवति करीचा इति किमपि सूत्रमस्ति षष् इत्ये प्रातिपदिकात् षट् इति निष्पन्नम् अस्तु पुष्पा भगिनी भवत्या यत् पृष्टं तद् पुस्तके अस्ति अनुनासिकसन्धिवशात् टकारस्य णकारः इति अस्ति समीचीनम् इत्येव महोदयेन प्रदर्शयति
कुत्र अस्ति
पुस्तके पुस्तके टिप्पणीरूपेण दत्तमस्ति महोदय
अनुनासिक सम्बन्धिवशात् टकारस्य णकारः
अस्तु समीचीनं महोदय
न करीचे इति सूत्रेण तद्भवति किं तत् षष् इति
षष् योगः
षट् भवति
अत्र प्रथमा प्रथमा
अत्र आं महोदय, अत्र षष् इति षट् भवति अथवा षट् भवति, झलां झषोऽन्ते अथवा करी च द्वयोः अपि वामस्थाने अपि अस्ति अत्र. परन्तु भगिनी एकः प्रश्नः, अत्र क्रमस्य अपि आवश्यकता अस्ति इति चिन्तयामि. प्रायः भवती उक्तवती षण् तु प्रथमं न भवति किल, षट् योगः नाम
इति मम चिन्तनम् आसीत्. यतोहि अनुनासिकसन्धिविधायकसूत्रं दृष्ट्वा यरोनुनासिके अनुनासिको वा,
तत्तु परसूत्रमस्ति, परसूत्रत्वात् तत्र त्रिपाद्यां परसूत्रमस्ति, अतः तस्य कार्यं प्रथमं तु न भवति एव. प्रायः अत्र षट् योगः नाम प्रथमम् अत्र स्तुत्वसन्धि भूत्वा षट् योगः णाम्, अनन्तरं टकारस्य इदानीं णकारः
अवश्यम् इति एव अस्ति. तदर्थमेव उक्तवती कश्चित् परिष्कारः आवश्यकः. अत्र पुस्तके अपि तथा न प्रदर्शितं, तर्हि मनसि भवेत् यत् प्रथमतया श्रुत्वं भवति, तदनन्तरं षट् इत्यस्य टकारस्य णकारत्वेन परिवर्तनम् अनुनासिकसन्धिः भूत्वा. अस्तु,
धन्यवादः.
समीचीनमस्ति. अनन्तरं कस्यचित् प्रश्नः आसीत् खलु, काचित् भगिनी उक्तवती मध्ये.
आं भगिनि, अत्र अनुवृत्तिसहितसूत्रं यदि वयं पश्यामश्चेत् तत्र पदान्तात् त्रोः स्तोः स्तुः न अनां संहितायाम् इति अस्ति. अत्र पदान्तात् तोः इति षष्टिविभक्ति, द्वितीयपदमस्ति स्तोः अस्ति.
एकनिमिषः, पदान्तात् तोः इति का विभक्तिः?
षष्टि पञ्चमीविभक्ति. अनन्तरं स्तोः इति शब्दः सप्तमीविभक्तौ लेखनीयं वा? अत्र किमर्थं
स्तोः कुतः आगतः इति परिशीलयतु. स्तोः इति शब्दः कुतः आगतः? स्तोः इति ष्टुनाष्टुः समानः एव अर्थः अत्र अत्रापि षष्टिविभक्तिः इति. इत्युक्ते स्तोः इति स्थाने, अस्तु, तस्य स्थाने कार्यं भवति. तस्य स्थाने कीदृशं कार्यं भवति? निषेधककार्यं भवति. कस्य निषेधः भवति इत्युक्ते ष्टोः, ष्टुः न इति उक्तं खलु तस्य.
अत्र अत्र द्वितीयपदम् अत्र यदि वयं षट् योगः सन्तः उदाहरणं पश्यामश्चेत् तत्र सन्तः इति शब्दः तत्र दन्त्यसकारः स्तोः, तत्र अनुवृत्तिसहितसूत्रे स्तोः इति सप्तमी विभक्तौ लेखनीयं वा? तत्र नास्ति वा?
नास्ति, नास्ति. सप्तमी विभक्ति यदि अभविष्यत् स्तौ इति अभविष्यत् खलु, इति नास्ति भगिनि. यतोहि हा सप्तमी इति चिन्तयितुं शक्नुमः, यतोहि परकार्यम् अस्ति इति भवत्याः विवक्षा खलु. हा इति चिन्तयितुं शक्नुमः, परन्तु अत्र उद्देशः अस्ति यत् स्तोः नाम सकारस्य स्थाने किमपि न स्यात्, तादृश अर्थः विवक्षितः अत्र. किं न स्यात्? ष्टुः न स्यात्, तादृश अर्थः विवक्षितः. अस्तु, अस्तु, समीचीनं. तर्हि सूत्राणां परिशीलनं सञ्जातं. ष्टुत्वम् इत्यत्र हा ष्टुनाष्टुः इति सूत्रं निषेधकसूत्रे द्वे खलु, तोषि अपि च न पदान्तात् तोरणां. करपत्रे अस्माभिः यत् परिशीलितं तदेव पुस्तके अपि अस्ति तस्मिन् भागे. तर्हि उदाहरणानि अथवा अभ्यासान् परिशीलयामः अधुना. सहदेव महोदय अस्ति वा?
आम् आं भगिनि.
रिक्तस्थानानि पूरयत इति कृपया.
तत् योगः टीका, तकारः स्थाने मूर्धन्यटकारः आदेशः भवति. तत्टीका भगिनि,
हा हा समीचीनं महोदय, तट्टीका तकारस्य टकार. अस्तु अग्रे.
शरद् योगः रिक्तस्थाने इति शरडम्बरः चिन्तयामि. शरद् योगः डम्बरः मूर्धन्यटकारः.
बहु समीचीनं, मूर्धन्यडकारयुक्तपदमागच्छति डम्बरः. अस्तु, शरद्योगः डम्बरः इति भवति चेत् तदा फलं किं भवति महोदय?
फलं
डकारस्य स्थाने डकारः आगच्छति खलु? अतः एव शरडम्बरः इति डकारद्वयघटितपदमस्ति किल? डकारद्वयं दृश्यते खलु, यतोहि डकारस्य स्थाने डकारः आगच्छति इति. अस्तु अग्रे.
उत् योगः रिक्तस्थाने इति उट्टङ्क्षणम् चिन्तयामि. उत् योगः टङ्क्षणम् तकारः स्थाने मूर्धन्यटकारः आदेशः भवति. उट्टङ्क्षणम्
समीचीनं, तकारस्य टकारः. अग्रे.
पक्षिन् पक्षिन् योगः चिन्तयामि. तकारः स्थाने मूर्धन्यटकारः आदेशः भवति.
एकनिमिष, पक्षिन् योगः टिट्टिभ.
ओ क्षम्यताम्. नकारः स्थाने मूर्धन्यनकारः पक्षिन्टिट्टिब.
बहु समीचीनमस्ति महोदय, इत्येव अस्ति. अत्र सर्वत्र दन्त्यवर्णस्य स्थाने मूर्धन्यवर्णः आगच्छत् खलु? सर्वत्र तकारः दकारः तकारानकारः इत्येव श्रुत्वसन्धिः अस्ति. अस्तु समीचीनमस्ति. सावित्री भगिनी पठति वा अथवा? अग्रे तर्हि विद्या भगिनी.
हा हा भगिनि. स्यात् योगः धक्का अत्र डकारस्य प्रभावेन डकारस्य स्थाने मूर्धन्यडकारः आगच्छति. स्याट्टक्का इति भवति. आविष्टः इति अस्ति अत्र. आविष्योगः तः षकारस्य प्रभावेन तकारस्य स्थाने टकारः भवति. आविष्टः पूर्वं धनवान् योगः षष्ठः. धनवान् अत्र
अत्र चिन्तयतु कानि कानि सूत्राणि अस्माभिः परिशीलितानि.
अत्र तोः षि इति कार्यं करोति. किमर्थम् इत्युक्ते नकारः तवर्गस्य पञ्चमवर्णः, अतः अत्र ष्टुत्वं न भवति, केवलं मेलनं. धनवान्
तोषि सूत्रं किं वदति भगिनि, इतोपि एकवारं स्मरणार्थं?
तोषि सूत्रं वदति इति तवर्गस्य कश्चन वर्णः अस्ति, अनन्तरं षकारे परे तत्र ष्टुनाष्टुः कार्यं न करोति इति. तादृशस्थितिः अस्ति अत्र. नकारः तवर्गस्य वर्णः, अनन्तरं षकारे परे, अतः अत्र तोः षि इत्यनेन श्रुत्वं न भवति. नकारस्य स्थाने णकारः मूर्धनि णकारः न भवति, केवलं मेलनमेव. धनवान् षष्ठः.
समीचीनं, धनवान् षष्ठः इत्येव भवति. अग्रे
अग्रिमं सट् टिप्पणी इति अस्ति. तत्र सत् योगः टिप्पणी, तत्र तकारस्य स्थाने मूर्धन्य टकारः आगच्छति टकारस्य प्रभावेन श्रुत्वसन्धिः भवति. अनन्तरम् उड्डयनं, तत्र उड्डयनं तत्र तकारस्य स्थाने ओ प्रथमं तत्र उत् इति उद् भवति चषत्वं भूत्वा उद् योगः डयनं. डकारस्य स्थाने डकारः मूर्धन्य डकारः आगच्छति, उड्डयनम् इति भवति.
हा हा, बहु समीचीनमासीत् भगिनि. तर्हि सर्वे अवगतवन्तः वा अत्र कीदृशं कार्यम् इति?
भगिनी अत्र सद् टिप्पणी या सत् टिप्पणी?
भगिनी तत्र सत् टिप्पणी एव कार्यं करोति. अस्तु, यतोहि टकारः खर् वर्णः अस्ति. अस्तु, तर्हि जष्त्वं न भवति तत्र. किन्तु विद्या भगिन्या यत् पठितं तस्मिन् उदाहरणे भगिनी किं भवति प्रथमम् उद्योगः डयनं, तत्र किं भवति?
उद्योगः डयनं तत्र तु जषत्वस्य निमित्तम् अस्ति. किमर्थम् इत्युक्ते अनन्तरं कर् प्रत्याहारस्य वर्णः नास्ति, अतः तत्र जषत्वं भवति. तकारस्य स्थाने दकारः तृतीय तवर्गस्य तृतीयवर्णः आदेशः भवति. उत् उद् भवति, अनन्तरं स्तुत्वसन्धि भवति, उड्डयनम् इति भवति.
उड्डयनम् इति तदा भवति. समीचीनमस्ति. अस्तु, इति श्रुत्वसन्धेः वार्ता आसीत्. अग्रिमसन्धिः अस्ति जष्ट्वसन्धिः इति. अत्र कोऽपि प्रश्नः वा श्रुत्वसन्धिविषये? सर्वं स्पष्टं स्यात् इति मन्ये. तर्हि अग्रे सर्तुं शक्नुमः. अग्रे सुब्रह्मण्यमहोदय.
पुस्तकात् वा करपत्रं भगिनि?
प्रायः करपत्रात् एव प्रथमं पठतु.
अत्र तृतीयं बिन्दुः अस्ति जस्त्वसन्धिः. पदान्ते जस्त्वं, झलां जशोऽन्ते. पदान्ते झलः स्थाने जशादेशो भवति. पदात्परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव. पदात् परे अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव. बाधकसूत्रम् अस्ति चेत् अन्या वार्ता. झल् प्रत्याहारे पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि नाम अनुनासिकवर्गीयव्यञ्जनानि अपि च ष ष सः प्रयोगे वर्गाणां प्रथमः द्वितीयः तृतीयः चतुर्थश्च वर्णाः आयान्ति. जष् प्रत्याहारे वर्गाणां तृतीयवर्णः जबगडद इति. स्थानेन्तरतमः इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति. तर्हि पदस्य अन्ते झल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति. अयं जष्ट्वसन्धिः इति उच्यते. झलां षष्ठ्यन्तं, जषः प्रथमान्तम्, अन्ते सप्तम्यन्तं. त्रिपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पदस्य अन्ते झलां जषः. एतत्तु झलां जशोन्ते सूत्रमस्ति. अर्थः अस्ति अत्र पदान्ते झलः स्थाने जष् आदेशः भवति इति. झल् प्रत्याहारे तु सर्वे अत्र झल् प्रत्याहारे वर्गीय प्रथम द्वितीय तृतीय चतुर्थ वर्णाः अपि च शेषसः सन्ति तेषां स्थाने जश् आदेशः भवति. जश् प्रत्याहारे वर्गीयतृतीयसदस्याः भवन्ति जबगडद. पदस्य अन्ते एतस्य सूत्रस्य प्रसक्तिः अस्ति. अनन्तरं कोऽपि वर्णः अस्ति वा, पदात् परे कोऽपि वर्णः अस्ति वा न वा इति प्रसक्तिः नास्ति अस्मिन् सूत्रे. इत्युक्ते अत्र पदस्य अनन्तरं अच् वर्णः वा हल् वर्णः वा भवेत् तस्य कोऽपि प्रसक्तिः नास्ति सामान्यतया. अथ पदस्य अन्ते झल् वर्णः अस्ति चेत् तस्य स्थाने जश् आदेशः भवति इति सूत्रं वदति. झलाम् इति षष्ट्यन्तमस्ति, जश् इति प्रथमान्तमस्ति, अन्ते इति अत्र विषयसप्तमी अस्ति. अत्र पदस्य अन्ते झल् वर्णस्य स्थाने जश् वर्णः आदेशरूपेण भवति इति एतस्य सूत्रस्य अर्थः. अत्र कः वर्णः आगच्छति इति द्रक्ष्यामः चेत् स्थानेन्तरतमः इत्यस्य प्रसक्तिः अस्ति. अत्र उच्चारणस्थानाम् अनुसृत्य अत्र कः वर्णः आगच्छति इति वक्तुं शक्नुमः. पदस्य अन्ते यदि कवर्गीयव्यञ्जनमस्ति चेत् अत्र कवर्गीयव्यञ्जनेषु तृतीयसदस्यः यः अस्ति सः अत्र आगच्छति. इत्युक्ते गकारः आगच्छति. तदा चवर्गीयव्यञ्जनमस्ति चेत् धकारः, टवर्गीयव्यञ्जनमस्ति चेत् डकारः, तवर्गीयव्यञ्जनमस्ति चेत् दकारः, पवर्गीयव्यञ्जनमस्ति चेत् बकारः आगच्छति इति एतस्य सूत्रस्य अर्थः.
हा समीचीनमस्ति महोदय. तर्हि उदाहरणं किमस्ति अत्र?
अत्र करपत्रे मरुत् योगः वहति इति अस्ति. अत्र मरुत् इति पदमस्ति, तस्य अन्ते तकारः अस्ति, अनन्तरं वहति इति अस्ति. वहति इति
अस्मिन् सूत्रे किम् उक्तं?
पदस्य अन्ते एकनिमिषः भगिनि, अत्र किञ्चित् अस्मिन् सूत्रे पदस्य पुनः पृच्छतु भगिनि.
हा अस्मिन् सूत्रे किम् उक्तं? पदस्य अन्ते झल् भवतु तावदेव.
पदस्य अन्ते झल् भवतु इति. अनन्तरं कोऽपि वर्णः अस्ति वा इत्यस्य प्रसक्तिः नास्ति इति. अतः अत्र मरुत् इत्यस्य दकारस्य तवर्गीयतृतीयसदस्यः दकारः आगच्छति, अतः मरुद् इति भवति. मरुद्योगः वहति, अत्र केवलं वर्णमेलनं मरुद्वहति इति रूपं निष्पन्नं भवति. अत्र वहति अस्ति वा इत्यस्य कोऽपि इदानीं तु यदा वयं न जानीमः, अत्र वहति इत्यस्य कोऽपि प्रश्नः नास्ति. इत्युक्ते वहति इति अस्ति चेत् भवति वा न वा इत्यस्य समस्या नास्ति अत्र.
खर् प्रत्याहारेषु कश्चन वर्णः यदि अभविष्यत् वहति इत्यस्य स्थाने खर्, तदा खरि च. परन्तु अत्र तथा किमपि नास्ति, मरुद्वहति एव भवति. अस्तु, बहु समीचीनमस्ति. अधुना इतोपि एकवारं सर्वेषाम् अवगमनं जातं वा न वा इति पश्येम. सञ्जीव् महोदय अस्ति वा? सञ्जीव् महोदय न स्यात्. सहदेव् महोदय अस्ति वा? सहदेव् महोदय,
भगिनि एकः प्रश्नः अस्ति. यदि मरु चलति भवति तत्र किमपि न भवति वा?
किमपि वस्तुतः खरि च भवति. अग्रे पश्यामः चत्वसन्धिविषये यदा वदामः तत्र पश्यामः. यद्यपि परिवर्तनं न दृश्यते तथापि कार्यं तु अस्ति. अस्तु, वस्तुतः जलां जशोन्ते तत्र कार्यं न करोति, यतोहि बाधकसूत्रत्वेन अन्यत् सूत्रम् आगच्छति कार्यं कर्तुम्. अस्तु, हा सहदे महोदय, अधुना पञ्चमपुटं पश्यतु पुस्तके, पश्यति वा? हा, पञ्चमे पुटे किञ्चित् वदतु, झल् प्रत्याहारे के के वर्णाः सन्ति?
झल्
तत्र उच्चारणं समीचीनं स्यात्, यतोहि केवलं श्रवणमाध्यमेन एव वयम् अत्र अस्मिन् वर्गे खलु, इति कृत्वा महाप्राणः अस्ति, झ भ घ ढ ढ. अनन्तरं इति झल् प्रत्याहारे, झल् प्रत्याहारे स्थिताः वर्णाः खलु, इत्येव महोदयेन विवृतमासीत्, करपत्रे अस्ति, झल् प्रत्याहारे पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा. पञ्चमवर्गीयव्यञ्जनानि इत्युक्ते किं महोदय? वर्गस्य पञ्चमसदस्याः खलु. इदानीं झभै इति अष्टमसूत्रमस्ति, सप्तमसूत्रं पठतु.
भगिनि पुनः वदतु,
सप्तमसूत्रं किम् अस्ति माहेश्वरसूत्रेषु? सप्तमसूत्रं किमस्ति? भवान् यद् उक्तवान् झभै घडदश् झबघडदश्, झभै इति अष्टमसूत्रम् आसीत् खलु, अष्टमसूत्रं नम्बर् पश्यतु, तत्र 8 इति अस्ति खलु. तस्मात् पूर्वं किम् अस्ति? तदेव सप्तमसूत्रं महेश्वरसूत्रेषु. झबै इत्यस्मात् पूर्वं किम् अस्ति महोदय?
पूर्वं न
खलु, इति अनुनासिकव्यञ्जनानि इति उच्यते किल?
अस्तु, अनुनासिकव्यञ्जनं,
हा अनुनासिकव्यञ्जनानि वर्जयित्वा झल् प्रत्याहारे सर्वाणि वर्गीयव्यञ्जनानि सन्ति, अपि च श श स ह इति व्यञ्जनानि सन्ति. अवगच्छति वा?
अवगच्छामि.
अस्तु, समीचीनं. तर्हि झल् प्रत्याहारः तादृशः, सर्वे पश्यन्ति इति चिन्तयामि, वर्गीयव्यञ्जनेषु पञ्चमव्यञ्जनानि वर्जयित्वा सर्वाणि व्यञ्जनानि, अपि च श श स इति झल् प्रत्याहारः. प्रत्याहाराः मनसि भवेयुः, सूत्रेषु प्रयुङ्क्ताः भवन्ति, अतः झल् इति तादृशप्रत्याहारः अस्ति. अधुना पुष्पा भगिनि, जश् इति प्रत्याहारे के के वर्णाः?
जश् जबगडद.
जबगडद इत्युक्ते
तृतीय व्यञ्जनः. तृतीयवर्गीयव्यञ्जनः.
व्यञ्जनानि, समीचीनं भगिनि. अस्तु, तर्हि इतोपि एकवारं वदतु भगिनि, झलां जशोन्ते सूत्रं किं वदति? तर्हि
अनुनासिक वर्णान् अनुनासिकव्यञ्जनान् त्यजित्वा सर्वे व्यञ्जनानि हयवरद नास्ति,
हयवर अपि अस्ति खलु इति सहदे महोदय प्रदर्शितवान्. क्षम्यतां भगिनि,
हयवरला नास्ति.
एकनिमिष, हकारः अस्ति, यवर नास्ति, यवरल नास्ति,
हकारः अस्ति, यवरल नास्ति, यवरल नास्ति
इति झल् प्रत्याहारस्य वर्णः। तर्हि जष्ट्वसन्धिविधायकसूत्रं झलां जशोन्ते इत्यत्र कार्यं किं भवति?
कार्यं तु कोऽपि वर्गीय पदान्ते जलः अस्ति चेत् तत्र तृतीयवर्गीयव्यञ्जनात् स्थानेन्तरमः स्थरतमः तत्र वदति कवर्गीयव्यञ्जनः गकारः तत्र तथैव तृतीयव्यञ्जनः आयाति, आदेशः आदेशः भवति।
झलः स्थाने जश् आदेशो भवति कदा? यदा झल् पदान्ते अस्ति चेत् इति जष्ट्वसन्धिविधायकसूत्रं पदान्ते झलां जशोन्ते कार्यं करोति। अस्तु, हा इत्युक्ते इदानीं महोदयेन अपि उदाहरणं दत्तं, विद्युत् योगः अस्ति, विद्युत् योगः अस्ति, विद्युत् इति पदमस्ति खलु, पदस्य अन्ते तकारः भवति चेत् भवति अत्र विद्युत् इत्यस्मिन्, तर्हि विद्युद् इति भवति, विद्युदस्ति इति भवति एव सन्धि इच्छति चेत्, विद्युदस्ति इति झलां जशोन्ते कार्यं करोति। अत्र सूत्रे किम् उक्तं, पदात् परे अच् अथवा हल् स्यात् अथवा न, तदापि सूत्रं कार्यं करोति, सूत्रस्य प्रसक्तिः अस्ति एव इति उक्तम् अस्ति खलु। तर्हि विद्युत् योगः अस्ति इत्यत्रापि कार्यं करोति, अपि च यदि अस्ति योगः विद्युत् इति कृत्वा पूर्णविरामः अस्ति चेत्, अस्ति विद्युत् इति अस्ति चेत् तत्रापि सूत्रं कार्यं करोति, अस्ति विद्युत्।
परेषु अस्ति प्रथमं करोति चेत् अपि विद्युद् अस्ति, आयाति।
तदर्थमेव अत्र उक्तं पदात् परे कोऽपि वर्णः स्यात् वा न सूत्रस्य प्रसक्तिः भवति एव, तादृशम् अस्ति झलां जशोन्ते इति सूत्रं। पश्यन्तु अत्र संहितायाम् इत्यस्य अधिकारः अपि नास्ति सूत्रे खलु,
नास्ति
इत्यस्य अर्थः अयमेव। तत्र मरुत् वहति अपि, मरुद् वहति इति अभवत्, यदि वहति मरुत् इति वाक्यमासीत् वहति मरुत् इत्यत्रापि शक्नोति कार्यं कर्तुं शक्नोति, वहति मरुद् इति कार्यं कर्तुं शक्नोति।
महोदय, तदा चेत् मरुत् परतः सर्वदा मरुत् मरुद् एव लेखनीयं किल?
सन्धि इच्छति चेत् वस्तुतः वाक्यस्तरे सन्धिः वैकल्पिकः खलु, प्रथमतया यदि सन्धिः इच्छति चेत् दकारः आगच्छति, मरुद् वहति। तर्हि यदा सन्धिः न करोति, सन्धिं न करोति, तदा मरुत् वहति इत्येव वक्तुं शक्नोति। समीचीनम्, अस्तु। इतः अग्रे तर्हि झलां जशोन्ते इति एकं सूत्रमासीत् जष्ट्वसन्धिविधायकं सूत्रम्, इतोपि एकं सूत्रम् अस्ति जष्ट्वसन्धिविधायकसूत्रं। बालसुब्रह्मण्यमहोदय करपत्रे अग्रे गच्छतु, झलां जश् झषि इति पश्यति वा?
झलां झलां स्थाने जस् आदेशो भवति, झषि परे जश् प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः स्थानेन्तरतमः इत्यनेन जस् वर्णेषु वर्णनिर्धारणम्। जलां षष्ट्यन्तं, जसः प्रथमान्तं, जसि सप्तम्यन्तं, त्रिपदमिदं सूत्रं तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रं झलां झस् झसि संहितायां, झलां झल् परः झष् इति वर्णः आयाति चेत् जल् स्थाने जस् आदेशः भवति. अत्र पदान्तं न भवेत् किल, जल् इति पदान्तं न अपदान्ते.
हा, सर्वे पश्यन्ति वा जलां जस् जसि सूत्रं, तत्र पदस्य इति अधिकारः कुत्रचित् अस्ति वा महोदय लिखितम्? नास्ति खलु? झलां जशोन्ते इत्यस्मिन् सूत्रे पदस्य अधिकारः आसीत्, अतः पदान्तकार्यम्. हा, अत्र कस्य अधिकारः?
झलां जशसि इति संहितायां कस्य अधिकारः
अस्ति? अस्ति खलु, पदस्य अधिकारः न, संहितायाम् इत्यस्य अधिकारः
अस्ति.
झलां जशोन्ते सूत्रस्य स्थले संहितायाम् इत्यस्य अधिकारः न आसीत्, अतः एव उक्तं जलः अनन्तरं वर्णः भवतु न वा कार्यं प्रचलति इति. परन्तु अत्र तथा नास्ति खलु, अवगच्छति वा?
अवगच्छामि महोदय. एतन्निमित्तमेव पूर्वं मम अहं पृष्टवन्तः जलां जशोन्ते इति सूत्रेण खरि पुरतः आयाति चेत् भिन्नवार्ता, तद्विहाय साधारणतया संहिता नास्ति चेदपि जलां मरुत् उदाहरणरूपेण मरुत् सर्वदा मरुत् एव लेखनीयं किल, मरुत् इति
तदर्थमेव उक्तवती, मरुत् एव लेखनीयः इति नियमः नास्ति. मरुत् इति तदा लेखनीयं भवति यदा भवान् सन्धिं न इच्छति. किन्तु सन्धिम् इच्छति चेत् तत्र मरुद्वहति इति जष्ट्वसन्धि एव भवति. अस्तु अस्तु, इदमस्ति द्वितीयसूत्रं, जष्ट्वसन्धिविधायकसूत्रं. पुनः पठतु महोदय.
जलां जस् जसि इति
आम्
जलां जस् जसि, जलां स्थाने जस् आदेशो भवति जसि परे, जस् प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः. स्थानेन्तरतमः इत्यनेन जस् वर्णेषु वर्णनिर्धारणं, जलां षष्ट्यन्तं, जसः प्रथमान्तं, जसि सप्तम्यन्तं, त्रिपदमिदं सूत्रं. तयोर्व्यार्वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जलां जस् जसि संहितायाम्. उदाहरणम् उष् योग डि, उड् योग डि, उड्डि. अत्र षकारः झल्, ढकारः जस् जभञ् जडदश् जस्, ढकारः चतुर्थसदस्यवर्णः, तस्मात् षकारस्थाने जस् तृतीयसदस्यवर्णः डकारः आयाति. उड् यः डि, उड्डि इति अनुरूपम्.
षकारस्य स्थाने डकारः केन सूत्रेण?
षकारस्थाने डकारः जलां जस् जसि इति सूत्रेण जल्वर्णः जस् पुरतः डकारः दरि जस् भवति, तृतीयसदस्यवर्णः भवति.
हा सत्यं, परन्तु कस्य षकारः इति वर्गीयव्यञ्जनं नास्ति खलु? तर्हि केन आधारेण डकारः आगच्छति तस्य स्थाने?
इति मूर्धन्य वर्ग, ष मूर्धन्यवर्णः, मूर्धन्यवर्गस्य तृतीयसदस्यः डकारः इति अहं मन्ये.
तत्रैव स्थानेन्तरतमः कार्यं करोति. उष् योगः ढि इत्यत्र षकारः झल् प्रत्याहारे कश्चन वर्णः अस्ति, अपि च ढ इति जश् प्रत्याहारस्थः वर्णः. जष् प्रत्याहारे वर्गाणां तृतीयचतुर्थसदस्याः पुनः कृपया सर्वे महेश्वरसूत्राणि अवलोकयन्तु. एतानि एते सर्वे प्रत्याहारः मनसि स्युः. तर्हि उष् इत्यत्र षकारः झलि अस्ति, ढकारः झषि अस्ति, अतः षकारस्य स्थाने जष् आदेशः, तृतीयवर्णः आगच्छेत्. कस्मात् वर्गात् आगच्छेत् इत्यस्य निर्धारणं भवति स्थानेन्तरतमः सूत्रेण. अस्तु, समीचीनं. तर्हि उद्धि
अत्र भगिनि षकारस्थाने डकारः आयाति, तत्तु ष्टुत्वसन्धि कार्यं करोति न?
तत् सर्वदा नास्ति खलु भगिनि. ष्टुत्वसन्धिः कार्यं न करोति एव अत्र, यतोहि तत्र किं स्तोहोष्टुनाष्टुः स्यात् खलु. सकारटवर्गस्य स्थाने षकारटवर्गः, अत्र तथा नास्ति. षकारात् परतः डकारः अस्ति, ढकारः. सकारः अथवा तकारः नास्ति, श्रुत्वसन्धेः कार्यक्षेत्रमेव नास्ति अत्र. अस्तु, इति झलां झष् झषि इति अत्र कार्यं करोति, अपदान्ते कार्यं करोति झलां झष् झषि, पदान्ते कार्यं करोति झलां झषोऽन्ते इति जष्त्वसन्धिविधायकसूत्रद्वयमस्ति. तर्हि हा, समीचीनं. तर्हि अत्र कोऽपि प्रश्नः न स्यात् इति मन्ये. कानिचन उदाहरणानि परिशीलयिष्यामः, तदनन्तरं समापयामः. राजेन्दर् महोदय अस्ति वा?
आम् भगिनि.
जष्त्वसन्धिः इति तत्र पश्यति, एतानि उदाहरणानि परिशीलयत.
एतानि उदाहरणानि परिशीलयत. तत् योग अस्माकं त योग तकारः योग अकारः य अस्माकं तकारस्य स्थाने दकार आदेशः भवति जलां जशोन्ते सूत्रेण. अस्माकं तदस्माकं 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 निष्पन्नं भवति. स्यात् योग आत्मतृप्तः, स्या योग तकारः योग आकारः योग तृप्तः. तत् तकारस्य स्थाने पदान्ते यः तकारः अस्ति तस्य स्थाने दकार आदेशः भवति जलां जशोन्ते सूत्रेण. तत् स्याद् आत्मतृप्तः, स्याद् आत्मतृप्तः निष्पन्नं भवति.
महोदय, वर्णक्रमस्य वदनस्य आवश्यकता नास्ति, केवलं पदानि कानि इति उक्त्वा कस्य स्थाने कः आदेशः इति वदतु.
अस्तु भगिनि. बलात् योग इव इव तत्र इव एव
संस्कृतभाषायां यावत् पर्यन्तं सः दण्डः न दृश्यते वर्णस्य अधोभागे, तर्हि इव इति उच्चारणीयः, अकारः उच्चारणीयः एव.
बलात् योग एव तकारः अन्ते अस्ति पदान्ते तत् जलां जशोन्ते सूत्रेण तकारस्य दकारः भूत्वा तत् बलादेव निष्पन्नं भवति. वाक् योग ईशः, वाक् कवर्गी ककारः पदान्ते अस्ति तस्य स्थाने जलां जष्णोति सूत्रेण घकारः आगच्छ आदेशः भवति. वागीशः तत् निष्पन्नं भवति. सम्यक् योग उभयोः समय ककारः अन्ते अस्ति पदान्ते तस्य स्थाने घकार आदेशः भवति जलां जष्णोति सूत्रेण. संयुगुभ्योः
सम्यगुभयोः
सम्यगुभयोः निष्पन्नं भवति. एतत् योग ऋतं पदान्ते तकारः अस्ति तकारस्य स्थाने दकार आदेशः भवति जलां जष्णोति सूत्रेण. तत् एतद्धृतं निष्पन्नं भवति.
तर्हि अग्रे पठतु.
एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः स्वराः सन्ति. तत्र व्यञ्जनस्य स्थाने तत् तवर्गीय तृतीयव्यञ्जनम् आदेशः भवति। परन्तु भगिनी अत्र किमपि वर्गीय अथवा स्वराः वर्णाः सन्ति अथवा न सन्ति तत् कोऽपि कार्यं नास्ति तत्र।
हा हा इति वार्ता एते तथा लिखितवन्तः, किन्तु अधुना वयं जानीमः सूत्रं परिशील्य, खलु जलां जशोन्ते सूत्रं परिशील्य जानीमः कोऽपि वर्णः स्यात् वा न, तत्र पदान्तकार्यं जष्त्वं भवति एव। इत्युक्ते तद्दद्वर्गीयव्यञ्जनस्य तृतीयवर्णः आदेशरूपेण आगच्छति इति समीचीनं महोदय। अस्तु अग्रिमम् एकम् उदाहरणं पश्यतु भवान्। पृथक् बालाः,
पृथक् योग बालाः, अन्ते ककारः अस्ति, तत् तत्र ककारस्थाने ककार आदेशः भवति, जलां जशन्ते पृथग् बालाः,
पृथग् बालाः। अत्र अत्र कीदृशी स्थितिः, वर्गीयव्यञ्जनेभ्यः परतः कः अस्ति?
तत्र तु तृतीयसदस्या अस्ति, जस् वर्गीय आगच्छति, बकारः अस्ति, परन्तु तस्य कोऽपि कार्यं नास्ति। पदान्ते यथा ककारः अस्ति तस्य ककारस्थाने तृतीयवर्ग तृतीयवर्गस्य आदेशः भवति, पृथक्
वर्गस्य तृतीयसदस्यस्य आदेशः भवति।
आदेशः बालाः तत्र आसीत् अथवा न आसीत् तत् कोऽपि कार्यं नास्ति तस्य।
हा हा समीचीनम् इति एव वार्ता अस्ति। यत्र पदान्ते झल् वर्णः अस्ति तत्र जष्ट्वसन्धेः निमित्तम् अस्ति एव, झलां जशोन्ते इति सूत्रेण इति अस्ति। अग्रे गत्वा जलां झष् झषि कुत्र कार्यं करोति इत्यपि परिशीलयिष्यामः। अत्र कश्चन परिचयः प्राप्तः जष्ट्वसन्धेः, तर्हि अत्र स्थगयामः इति चिन्तयामि। कोऽपि प्रश्नः अस्ति वा कस्यचित्? अस्तु तर्हि धन्यवादः।
धन्यवादः,
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 धन्यवादः।